संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्ण कुलेक्षणम् विषीदन्तम् इदं वाक्यम् उवाच मधुसूदन। श्री भगवान उवाच कुतस्त्वा कस्मदमिदं विषमे समुपस्थितं अनार्यजुष्टं अस्वर्ग्यं अकीर्तिकरं अर्जुन। क्लैब्यं मा स्मगमा पार्थ नैतत्वै उपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्तोत्तिष्ठ परन्तप। अर्जुन उवाच कथं भीष्ममं संखे द्रोणं च मधुसूदन इषुभिः प्रतियोत्स्यामि पूजारा वरिषु भावान् श्रेयो भोक्तुं वैक्ष्मपि यलो वार्तकामौ सुगुरूण्यैव भुञ्जीय भोगान् रुधिरप्रदग्धान् न चैतद्विद्मः कतरन्नगरीयो यद्वा जयेम यदि वा नो जयेयो यानेव हत्वा न जिजीविषामस्तेव स्थिताः प्रमुखे धर्तराष्ट्रा कार्पण्यदोषो पहतस्पाव पृच्छामि त्वां धर्मसम्मूढचेताः यश्रेयः स्यात् निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् नहि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छो क्षणमिन्द्रियाणाम् अवाप्य भूमाव सपत्नमृद्धम् राज्यम् सुराणाम् अपि चाधिपत्यम्। संजय उवाच एवमुक्त्वा ऋषिकेशम् गुडाकेशः परन्तप न योत्सेदि गोविन्दमुक्त्वा तूष्णीं बभूव। तम् उवाच ऋषिकेशः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तम् इदं वचः। श्रीभगवान् उवाच अशोच्या नन्वशोचस्त्वम् प्रज्ञावादांश्च भाषसे गतासून् गतासूंश्च नानुशोचन्ति पण्डिताः। न त्विवाहं जातो नासं न त्वं नेमे जनाधिपः न चैव न भविष्यामः सर्वे वयमतः परम्। देहिनो अस्मिन् यथा दे कौमारं यौवनं जरा तथा देहांतर प्राप्तिर् धीरस् తత్ర నమయతి మాత్రా స్పర్శాస్తు కౌంతేయ శీతోష్ణ సుఖ దుఃఖదాః ఆగమాపాయనో అనిత్యాస్తితిక్షస్వ భారత యం హి న వ్యథయంతే తే పురుషం పురుషర్షభ సమదుఃఖ సుఖం ధీరం సోమృతత్వాయ కల్పతే నాసతో విద్యతే భావో నాభావో విద్యతే సత ఉభయోరపి దృష్టోన్ తత్వనయో తత్వదర్శిభిః అవినాశి తు తద్విద్ధి ఏన సర్వమిదం తతం వినాశం అవ్యస్యాస్య న కశ్చిత్ కర్తుం అర్హతి అంతవంత ఇమే దేహా నిత్య సూక్తః శరీరినః అనాశినో అప్రమేయస్య తస్మాత్ యుద్ధస్వ భారత యైనం వేత్తి హంతారం యశ్చైనం మన్యతే అతం ఉభౌతౌ న విజానీతో నాయం హంతీన అన్యతే న జాయతే మ్రియతే వా కదాచిన్ నాయం భూత్వా భవితావాన్ భూయ అజో నిత్యః శాశ్వతోయం పురాణో న హన్యతే హన్యమానే శరీరే వేదా వినాశినం నిత్యం యైనం అజమ వ్యయం కథం స పురుష పార్థ తం ఘాతయతి హంతికం వాసాంసి జీర్ణాని యథా విహాయ నవాని గృహ్ణాతి నరోపరాణి తథా శరీరాణి విహాయ జీర్ణాని అన్యాని సంయాతి నవాని దేహి నైనం చిందంతి శస్త్రాణి నైనం దహతి పావకః న చైనం ఖేదయంత్యాపో న శోషయతి మారుతః అఛేద్యో యమదాహ్యో యమక్లేద్యో అశోష్యైవ చ నిత్య సర్వగతః స్థాణుర్ అచలోయం సనాతనః అవ్యక్తోయమ చింత్యోయం అవికార్యో యముచ్యతే తస్మాదేవం విదిత్వైనం నానుశోచితుం అర్హసి అథ చైనం నిత్యజాతం నిత్యం వా మన్యసే మృతం తథాపి త్వం మహాబాహో నైనం శోచితుం అర్హసి జాతస్య హి ధ్రువో మృత్యుం ధ్రువం జన్మ మృతస్య చ తస్మాద్ అపరిహార్యర్థే న త్వం శోచితుం అర్హసి అవ్యక్తాదిని భూతాని వ్యక్తమధ్యాని భారత అవ్యక్త నిధనాన్యేవ తత్ర కా పరిదేవనా ఆశ్చర్యవత్ పశ్యతి कश्चिदेनम् आश्चर्यवद् वदति तथैव चान्यः आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वापेनं वेदन चैव कश्चित् देहि नित्यम् अवध्योऽयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि स्वधर्ममपि चावेक्ष न विकम्पितुम् अर्हसि धर्माद्विद्या श्रेयोऽन्यत् क्षत्रियस्य न विद्यते यदृच्छया चोपपन्नम् स्वर्गोदारम् अपावृतम् सुखिनः क्षत्रिया पार्थ लभन्ते युद्धमीदृशम् अथ चेत्त्वमिमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि ततः स्वधर्मम् कीर्तिञ्च हित्वा पापम् वाप्स्यसि अकीर्तिञ्चापि भूतानि कथयिष्यन्ति ते व्ययाम् सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते भयादृणादुपरतम् मत्स्यन्ते त्वाम् महारथा येषाम् च त्वम् बहुमतो भूत्वा याससि लाघवम् उवाच वदांश्च बहून् वदिष्यन्ति तवाहिताः निन्दन्तस्तव सामर्थ्यम् ततो दुःखतरम् नु किम् अतो वा प्राप्स्यसि स्वर्गम् जीत्वा वा भोक्ष्यसे महिम् तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः सुखदुःखे समे कृत्वा लाभालाभौ जया ततो युद्धाय युज्यस्व नैवम् पापम् अवाप्स्यसि एषा ते भीता सांख्ये बुद्धिर्योगे त्विमां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धम् प्रहास्यसि नेहाविक्रम नाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमपि अस्य धर्मस्य त्रायते महतो भया यस्य व्यवसायात्मिका व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन बहुशाखा हि अनन्ताश्च बुद्धयो अव्यवसा यामिमां पुष्पितां वाचं प्रवदन्ति विपश्चितः वेदवादरताः पार्थ नान्यदस्तिवादिनः कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदां क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति भोगैश्वर्य प्रसक्तानाम् तया परत चेतसाम् व्यवसायात्मिका बुद्धिः समाधौ न विधीयते त्रैगुण्य विषया वेदा निश्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् यावानर्थोदपाने सर्वतः संप्लुदोदके तवान् सर्वेषु वेदेषु ब्राह्मणस्य विजानत। कर्मण्येव अधिकारस्ते मा फलेषु कदाचन, मा कर्मफल हेतुर्भूर्मा ते संगोस्तु अकर्मणे। योगस्थ कुरु कर्माणि संगम त्यक्त्वा धनंजय, सिद्ध सिद्ध्यो समो भूत्वा समत्वम्। योग उच्यते दूरे नहि अवरम कर्म, बुद्धि योगात् धनंजय। बुद्धौ शरणम् अन्विच कृपणा फलहे तव। बुद्धियुक्तो जहातीय उभे सुकृत दुष्कृते, तस्माद् योगाय युज्यस्व। योग कर्मसु कौशलम्। कर्मजम् बुद्धियुक्ता हि फलम् त्यक्त्वा मनीषिणा, जन्मबन्ध विनिर्मुक्ता पदम् गच्छन्ति अनामयम्। वेद्यदाते मोहकलिलम् बुद्धिर्व्यति तरिष्यति, तदा कंतासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च। श्रुतिविप्रतिपन्नाते यदा स्थास्यति निश्चला, समाधावचला बुद्धिः तदा योगमवाप्स्यसि। अर्जुन उवाच, स्थितप्रज्ञस्य का भाषा, समाधिस्तस्य केशव, स्थितदिः किं प्रभाषेत, किमाशीत व्रजेत किम्। श्री भगवान उवाच, व्रजाति यदा कामान् सर्वान् पार्थ मनोगतान्, आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते। दुःखेषु अनुद्विग्नमनः, सुखेषु विगतस्पृह, वितराग भय क्रोध स्थितधीर्मुनिरुच्यते। यः सर्वत्रान् अपि स्नेह तत्तत् प्राप्य शुभाशुभम्, नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता। यदा संवर्ते चायं कुर्मोङ्गानिव सर्वशः, इन्द्रियाणि इन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जम् रसोऽप्यस्य परम् दृष्ट्वा निवर्तते यततोऽपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथिनि हरन्ति प्रसवम् मनः तानि सर्वाणि संयम्य युक्तासीत् मत्परः वशे यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायतो विषयान् पुंसः संगस्ते शूपजायते संगात् संजायते कामः कामात् क्रोधो विजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषवियुक्तैस्तो विषयान् इन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादम् अधिगच्छति प्रसादे सर्वदुःखानाम् हानिरस्योपजायते प्रसन्नचेतसो याशु बुद्धि पर्यवतिष्ठते नास्ति बुद्धि प्रयुक्तस्य न चायुक्तस्य भावना न चाभावयत शान्तिः अशान्तस्य कुतः सुखम् इन्द्रियाणाम् विचरताम् यन् मनोनु विधीयते तदस्य हरति प्रज्ञाम् वायुर्नावमिवाम् भसि तस्मात् यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता या निशा सर्वभूतानाम् तस्याम् जागर्ति संयमी यस्याम् जागृति भूतानि सा निशा पश्यतो मुने आपूर्यमाणम् अचल प्रतिष्ठम् समुद्रमाप प्रविशन्ति यद्वत् तद्वत् कामायम् प्रविशन्ति सर्वे स्वशान्तिमाप्नोति न कामकामी विहाय कामान् यह सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहंकारः स शान्तिम् अधिगच्छति एषा ब्रह्मी स्थितिः पार्थ नैनाम् प्राप्य विमुह्यते स्थित्वा क्षमन्तकालेऽपि ब्रह्मनिर्वाण मृच्छति हरे कृष्ण 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 हरे 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 राम हरे राम 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 हरे हरे श्री कृष्णार्पणमस्तु।